वैभवं भुवनेश्वरम् अन्धकान्तकमाश्रितामरपादपं चमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यसि वैभवम् भक्तवत्सलमर्चितं निधिवक्षयं परिदम्बरं सर्वभूतपतिं परापरमप्रमेयमनुत्तमम् सोमवारिन भोगुदाशन सोमपानिलथाकृतिं चन्द्रशेखरमाश्रये मम किं करिष्यसि वैभवम् विश्वसृष्टिविदायिनं पुनरेव पालन तत्परम् संकरङ्कमपि प्रपञ्चमशेषलोकनिवासिनं क्रीडयन्तमतन्निशं गणनाथयूतसमन्वितं चन्द्रशेखरमाश्रये मम किं करिष्यसि वैगम ृदस्तवं शिवसन्निधौ यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् पूर्णवायुररो विरामखिलात सम्पदमादरम् चन्द्रशेखर एव तस्य ददारि मुक्तिमयत्नतः